अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्जता मध्यमन्धाः कामीः वीरस्सुदामस्य वेदिम् जुहोदवृष्णे दधि देशवष्टि अध्वर्यवो यो अपोवग्रिवांसम् वृत्रम् जगानासन्येव वृक्षम् अस्माजेतम् भरतरद्वसायम् केश इन्द्रो अर्हति प्रीतिमस्य अध्वर्यवो ज्योतिर्भीकम् जघानयोगाभुता जलपरिमरणम् वः तस्मायेतमन्तरिक्षेण मातमिन्द्रम् सोमैरोर्णोदजोर्णवस्त्रैः अध्वर्यभोजपुराणम् जघान नव चक्वांसम् नवतिम् च बाहून् यो अद्भुतमव नीचा बाधेतमिन्द्रम् सोमस्य मृधे हीनोत अध्वर्यभोजस्वस्वम् जघानजस्वष्णमसुषम् योव्यम् सम् यः पिप्रम् नमोचिम् योरुधिक्रान्तस्मायिन्द्रायान्धसो जुहोत अध्वर्यवायस्वदम् संवरस्य पुरो विभेदास्मनेव पूर्वीः यो भर्तिरः सदमिन्द्रः सहस्रमपावद्भरदासोममस्मै अध्वर्यवोजस्वदमासहस्रम् भूम्या उपस्थेव वज्जघन्वान् उत्सस्यायोरदिदिग्भस्य वीराण्यावृणग्भरदासोममस्मै अध्वर्यभोजन्नरः कामयाद्वे श्रुतीवहन्तो न स धातरिन्द्रे गभस्तिभूतम् भरतश्रुतायेन्द्राय सोमम् यज्ञवो जुहोत अध्वर्यवः कर्तना श्रुतिमस्मैवनेरभूतम् वनगुन्नायध्वम् युषाणोऽस्त्यमभिवापसे वयिन्द्राय सोमम् मधिरम् जुहोत अध्वर्यवः पयसो धर्यसागोः सोमेभिरीम् वृणता भोजमिन्द्रम् वेदागमस्य निभृतम् वजेदद्युत्सनम् भूयो यजतश्चिकेत अध्वर्यभोजो दिव्यस्य वस्वोजः पार्थिवस्य क्षम्यस्य राजा समोद्धरन्न प्रणता जभेरेन्द्रम् सोमेभिस्तरभो अस्तु अस्मभ्यम् तद्वासो दाराय राधः समर्थयस्व बहुदेव सव्यम् इन्द्रयश्चित्रम् श्रवस्या अनुद्योन्द्रेम विदधे सुवीराः